अथैकोनत्रिंशः सर्गः। तथा गतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसां शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः तस्याशुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकाला गुरुचन्दनार्हः अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोस्तु जातः प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे शुभं पुनर्हेम समानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः वासस्थितायाः शिखराग्रदन्त्याः किञ्चित् परिस्रंसत चारुगात्र्याः एतैर्निमित्तैरपरैश्च शुभ्रूः सञ्चोदिता प्रागपि साधुसिद्धैः वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रति संजहर्ष तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभृके शान्तमरालपक्ष्म वक्त्रं बभासे स्मितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः सावीतशोकाव्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः।